इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी श्रीलंका देशस्य राष्ट्रपतिः अनुराग कुमार दिशानायके इत्येषः च अद्य नवदिल्ल्यां द्विपक्षीय वार्ताः करिष्यतः। तौ परस्पर हितानां विषयेषु चर्चां करिष्यतः। भारतस्य त्रिदिवसीय यात्रायां श्रीदिशानायके ह्यः नवदिल्ल्यां सम्प्राप्तवान्। सूचना प्रसारण राज्यमन्त्री डॉ एल मुरुगनः तस्य स्वागतं कृतवान्। श्रीलंका देशस्य राष्ट्रपतिः राष्ट्रपतिपदासीनया द्रौपदी मुर्मू वर्यया उपराष्ट्रपतिना जगदीप धनखड़ेन च सह मेलनं करिष्यति। सः बिहारस्य बोधगयायाम् अपि गमिष्यति। राष्ट्रपति पदं स्वीकृत्य राष्ट्रपतेः श्रीदिशानायके इत्यस्य भारतस्य प्रथमा यात्रा अस्ति। अनया यात्रया द्वयोः देशयोः बहुपक्षीयं परस्परं लाभप्रदं च सहकार्यम् अधिकं सुदृढं भविष्यति इति अपेक्षास्ति। प्रधानमन्त्रिणा नरेन्द्रमोदिना राज्यैः आग्रहः कृतः यत्ते लघुनगराणाम् उद्यमिनां कृते उपयुक्तानि स्थानानि चिन्तयित्वा तेषां सुविधायै कार्यं कुर्वन्तु इति। नवदिल्ल्यां मुख्यसचिवानां चतुर्थं राष्ट्रियसम्मेलनं सम्बोधयन् श्रीमोदी राज्यैः अनुपालनस्य सरलीकरणं कर्तुम् उक्तवान्, येषाम् अभावेन प्रायः नागरिकाणाम् उत्पीडनं भवति। सः प्रतिभागिभिः आग्रहं कृतवान् यत् राज्यैः नागरिकसहभागिताम् अथवा जनसहभागित्वं प्रोत्साहितुं शासनस्य प्रतिरूपे परिष्कारः करणीयः। श्रीमोदी अवदत् यत् संशोधने प्रदर्शने परिवर्तने च ध्यानं दातुं महत्वपूर्णमस्ति, तथा च सर्वकारस्य विभिन्नानाम् उपक्रमाणां विषये जनान् सूचयितुम् अपि महत्वपूर्णम् अस्ति। महाराष्ट्रे ह्यः भारतीय जनता पार्टीति दलस्य नेतृत्वस्य महायुति सर्वकारस्य मन्त्रिपरिषदि ऊनत्रिंशत् मन्त्रिणः सम्मिलिताः। एते नागपुरस्य राजभवने एकस्मिन् समारोहे शपथवचन ग्रहणं कृतवन्तः। मन्त्रिमण्डले त्रयस्त्रिंशत् मन्त्रिणः षड् राज्यमन्त्रिणश्च सन्ति। राज्यपालेन सीपी राधाकृष्णन् इत्यनेन नवनियुक्तेभ्यः मन्त्रिभ्यः शपथवचनम् अकारितम्। अस्मिन्नवसरे मुख्यमन्त्री देवेन्द्र फडणवीसः, उपमुख्यमन्त्रिणौ एकनाथ सिन्दे, अजीतपवारौ च उपस्थितौ आस्ताम्। दक्षिणकोरियादेशस्य कार्यवाहकराष्ट्रपतिः हान् डक्सू इत्यनेन अमेरिकादेशस्य राष्ट्रपतिना जो बाइडन् इत्यनेन सह दूरभाषमाध्यमेन वार्तालापः कृतः। द्वयोः देशयोः एकरूपतां यथावदेव संस्थापनाय विकासाय च प्रतिज्ञा कृता। दक्षिणकोरियादेशस्य राष्ट्रपति कार्यालयेन एकस्मिन् वक्तव्ये उक्तं यत् हान् बाइडेन् इत्यनेन सह षोडशनिमेषं यावत् दूरभाषे वार्तालापं कृतवान्। अवधेयं वर्तते यत् राष्ट्रपतिः यूनसुक येओल इत्यस्य उपरि ह्यः राष्ट्रियसभया महाभियोगः कृतः। दिसम्बरमासस्य तृतीये दिनाङ्के मार्शल् लॉ इत्यस्य प्रयोगः अपि जातः। महिलाक्रिकेटक्रीडायां भारतेन गतरात्रौ नवी मुंबई नगरस्य डीवाई पाटिल क्रीडांगणे तिसृणां क्रिकेट श्रृंखलानां प्रथमायां विंशति प्रतिविंशति अन्ताराष्ट्रिय क्रीडायां वेस्ट इंडीज दलं 47 धावनांकैः पराजितम् इति वार्ताः।